इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् कैरिकॉम सदस्य देशैः सह भारतम् कोविड इत्यादयः प्राकृतिक आपत्सु क्षमता निर्माणे वा विकासस्य विषयेषु कार्याचरणाय सदैव सज्जः अस्ति। गतरात्रौ गुयाना देशस्य जार्जटाउन नगरे द्वितीय भारत कैरिकॉम शिखर सम्मेलनस्य उद्घाटन संभाषणे श्रीमोदी अवदत् यत् एतत् शिखर सम्मेलनं पञ्चवर्षेभ्यः परं भवति, तथा च एतेषु पञ्चवर्षेषु विश्वेस्मिन् अनेकानि परिवर्तनानि जातानि। प्रधानमन्त्री नरेन्द्रमोदी गतसायं जार्जटाउन नगरे गुयानादेशस्य राष्ट्रपतिना डॉ मोहम्मद इरफान अली इत्यनेन सह वार्तालापं कृतवान्। वार्तायाः अनन्तरं दशसु सन्धिपत्रेषु हस्ताक्षराणि जातानि। यात्रावधौ गुयानादेशः प्रधानमन्त्रिणे नरेन्द्रमोदिने स्वस्य सर्वोच्चं राष्ट्रिय पुरस्कारं द आर्डर आफ एक्सिलेंस इति प्रदत्तवान्। डोमिनिका राष्ट्रमण्डलेन स्वस्य सर्वोच्च राष्ट्रिय सम्मानं डोमिनिका अवार्ड आफ ऑनर पुरस्कारः प्रधानमन्त्रिणे नरेन्द्रमोदिने प्रदत्तः। डोमिनिकायाः राष्ट्रपतिः सिल्वेनी वर्टनः कोविड ऊनविंशति महामारीकाले डोमिनिका देशे प्रधानमन्त्रिणः मोदिनः योगदानाय द्वयोः देशयोः सहभागिता सुदृढीकरणाय च तस्य समर्पणाय एतत् पुरस्कारं प्रदत्तवान्। श्रीमोदी अवदत् यत् डोमिनिका देशेन प्रदत्तः सर्वोच्च राष्ट्रिय पुरस्कारेण सः गौरवान्वितः अस्ति। सः सम्मानमिदं भारतस्य 44.1 शतकोटि जनान् समर्पितवान्। सः अवदत् यत् भारतं डोमिनिका च द्वौ लोकतान्त्रिकदेशौ स्तः मिलित्वा विश्वस्य कृते महिला सशक्तिकरणाय आदर्शौ स्तः। श्रीमोदी अवदत् यत् कोविड ऊनविंशति महामारीकाले भारतं डोमिनिका देशस्य जनानां साहाय्यं कर्तुं समर्थः अभवत् इति सन्तुष्टेः विषयः अस्ति। राष्ट्रिय सार्वजनिक प्रसारकः प्रसारभारती इत्यनेन स्वस्य ओटीटी इति कार्यक्रमस्य वेव्स इत्यस्य शुभारम्भः कृतः। ह्यः गोवायां भारतस्य 55वें अन्ताराष्ट्रिय चलचित्रमहोत्सवस्य इफ्फी इत्यस्य उद्घाटन समारोहे अस्य अनावरणं जातम्। वेव्स इत्यस्मिन् रामायण महाभारत शक्तिमान हम लोग इत्यादयः कालातीताः कार्यक्रमाः सम्मिलिताः भविष्यन्ति। एतत् मञ्चं दर्शकान् भारतस्य सांस्कृतिक भावनात्मक परम्परया सह योजयिष्यति। प्रसारभारत्याः अध्यक्षः नवनीत कुमार सहगलः अवदत् यत् अन्येषाम् ओटीटी मञ्चानाम् अपेक्षया वेव्स अद्वितीयः अस्ति। अन्यसेवाभिः सह स्वक्षं परिवारोन्मुखं च मनोरञ्जनं प्रदास्यति। आसियान रक्षामन्त्रिणां सभायां ADMM प्लस इत्यस्मिन् भागं ग्रहीतुं रक्षामन्त्री राजनाथ सिंहः लाओसस्य त्रिदिवसीय यात्रायां गतसायं सम्प्राप्तवान्। समागमे सः क्षेत्रीय अन्ताराष्ट्रिय सुरक्षा विषयेषु सभाम् अपि सम्बोधयिष्यति। ADMM इति आसियान देशानां सर्वोच्चं रक्षापरामर्शात्मकं सहकारीं च तन्त्रमस्ति। श्रीसिंहेन गतसायं चीनस्य रक्षामन्त्रिणा डोंग जुन इत्यनेन सह चर्चा कृता। झारखण्ड महाराष्ट्र राज्ययोः मतदानं शान्तिपूर्णरीत्या सुसम्पन्नम्। झारखण्डे द्वितीयाय अन्तिमाय च चरणाय 12 जनपदानां 38 आसनेभ्यः मतदानं समनुष्ठितम्। झारखण्डे 68.45% तत्रैव महाराष्ट्रे 65.2% मतदानं जातम् इति वार्ताः।